यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुः इष्टबन्धुः त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वतां येष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः भवद्विलोकावधि गोपवाटीं प्रमर्द्यपापः पुनरापतत्वाम् तार्क्ष्यार्पिताङ्घ्रेः तव तार्क्ष्य एषः चिक्षेपवक्षो भुवि नामपादं भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तत् इतीव मोहात् प्रवञ्चयन् अस्य खुराञ्चलं द्राक् अमुञ्च चिक्षेपिथ दूरदूरं सम्मूर्च्छितोऽपि हि अतिमूर्च्छितेन क्रोधोष्मणाः खादितुम् आद्रुतस्त्वां त्वं वाहदण्डे कृतधीश्च वाहादण्डं न्यधास्तस्य मुखे तदानीं तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नपि अयमैक्यमागात् आलम्भमात्रेण पशोसुराणां प्रसादके नूत्न इवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्राः त्वां तुष्टुवुः केशवनामधेयं कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्यवाचा प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वम् अभिष्टुतो भूः कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वां मयात्मजः प्रापदुरन्तमायो व्योमाभिधो व्योमचरोपरोधी स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च गुहासु कृत्वा पिदधे शिलाभिः त्वया च बुद्ध्वा परिमर्दितोऽभूत् एवंविधैश्च अद्भुतकेळिभेदैः आनन्दमूर्च्छाम् अतुलां व्रजस्य पदे पदे नूतनयन् असीमं परात्मरूपिन् पवनेशपायाः ॐ तत्सदिति श्रीमन्नारायणीये एकसप्ततितमं दशकं समाप्तं श्रीहरये नमः रमारमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।